नित्यं निरन्तरानन्दं चेतनं ब्रह्म निर्भयम् श्रुत्या Brahma Tattvam, Brahma Tattvam.